एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। प्रधानमन्त्रिणः केपी शर्मा ओलिनः समक्षम् उप प्रधानमन्त्रीभ्यां मन्त्रिभिश्च वर्तमानार्थिक वर्षे विधास्यमानानां कार्याणां प्राप्स्यमाणानाम् उपलब्धिनां च कृते कार्य सम्पादन संविधा विहिता अस्ति। सिंहप्रसादवर्तिनी प्रधानमन्त्री मन्त्री परिषद कार्यालये ह्य मन्त्रालयगत वार्षिक प्रगति समीक्षया सहैव आगामिनां कार्यक्रमाणां कार्य सम्पादन संविधायां हस्ताक्षराणि विधाय प्रधानमन्त्रिणे ओलिने संविधा हस्तान्तरिता वर्तते। एवमेव प्रधानमन्त्रिणः समक्षं सर्वकारस्य मुख्य सचिवेनापि कार्य सम्पादन संविधा विहिता अस्ति। कार्य सम्पादन संविधायाः आदान प्रदान कार्यक्रमे प्रधानमन्त्रिणा ओलिना नूतनरीत्या कार्यं विधातुं सर्वे मन्त्रिणः सचिवाश्च निर्दिष्टाः सन्ति। तदवसरे प्रधानमन्त्री ओली उत्पादकत्वं संवर्ध्य विपन्नतायाः दुश्चक्रात् देशं संरक्षितुं तीव्रगत्या कार्यं विधातुं बलं प्रादात्। प्रतिनिधि सभायाः ह्यस्तनोपवेशन एतद् विक्रमवर्षीयं सूचना प्रविधि सांजालिक सुरक्षा विधेयकं विचारणीयमिति उक्त्वा प्रस्तुतः प्रस्तावः सर्वसम्मत्या स्वीकृतो वर्तते। उपवेशे सभामुखः देवराज घिमिरे विधेयकमाधृत्य संशोधनस्य इच्छुकै सांसदै प्रतिनिधि सभायाः विधेयक शाखायां संशोधनं कर्तुं शक्यते इति असूचयत्। सभामुखः घिमिरे प्रधानमन्त्रिणा सह प्रत्यक्षं प्रश्नोत्तर कार्यक्रमः आगामिनः भाद्रमासस्य चतुर्थे दिवसे भविष्यतीति ज्ञापयन् प्रधानमन्त्रिणे प्रश्नान् प्रष्टुम् इच्छुकै सांसदै भाद्रमासस्य प्रथमे दिवसे परश्व रविवासरे दिवा एकवादनस्य अभ्यन्तरे प्रतिनिधिसभायाः सचिवस्य समक्षं स्वस्य प्रश्नः प्रस्तोतुं शक्यते इति असूचयत्। तत्पूर्वं प्रतिनिधिसभायाः ह्यस्तनोपवेशे सांसदानां प्रश्नान् उत्तरयन् कृषि पशुपक्षि विकास मन्त्री रामनाथ अधिकारी मले अत्यधिकानुदानस्य विद्यमानतायाः कारणेन विनियोजित वित्तेन याचनायाः सम्बोधनत्वेन मलम् आनेतुं न शक्तमिति समस्पष्टयत्। मन्त्री अधिकारी 280% यूरिया मलम्, जीएपी मलम् 64%, पोटास मलम् 49% अनुदानस्य रूपेण प्रदातव्या निवर्तन्ते इति उपवेशे अस्यूचयत्। प्रतिनिधिसभायाः ह्यस्तनोपवेशे सांसदाः देशस्य विभिन्नेषु भागेषु जलविप्लव भूस्खलनानां कारणेन पेयजल मार्ग यातायात अवकर व्यवस्थापन प्रभृतिषु क्षेत्रेषु प्राप्तायाः क्षतिर्विषये सर्वकारस्य ध्यानम् आकर्षयन्। सांसदाः संविधानेन मौलिकाधिकारस्य रूपेण सुनिश्चितानां निःशुल्क शिक्षा स्वास्थ्य प्रभृति विषयाणां क्रियान्वयनं विधाय जनतायाः जीवनस्तरम् उन्नेतुं बलं दत्तवन्तः। प्रतिनिधिसभायाः अपरोपवेशः आगामिनः भाद्रमासस्य चतुर्थे दिवसे बुधवासरे दिवा एकवादने वस्ता। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ वदति राज्य व्यवस्था सुशासन समितेः सभापतिना रामहरि खतिवडा विधेन स्वेच्छया त्यागपत्रं दत्तमस्ति। गत सोमवासरे उपविष्टस्य मन्त्री परिषद उपवेशस्य निर्णयान् सार्वजनिकर्तुं ह्य संचार सूचना प्रविधि मन्त्रालये आयोजिते पत्रकार सम्मेलने पत्रकाराणां प्रश्नान् उत्तरयन् मन्त्री गुरूङ सभापतिना खतिवडा विधेन कस्यचन बलेन न अपितु नैतिकतायाः आधारेण स्वेच्छ या एव सभापति पदात् त्यागपत्रं दत्तमस्तीति समस्पष्टयत्। संचार मन्त्री गुरूङ एतद् विक्रमवर्षीय संघीय सर्वकारीय सेवा विधेयक सम्बद्धि प्रतिवेदने सम्भूता त्रुटि अनुसन्धातुं संघटितया संसदीयानुसन्धान विशेष समित्या प्रस्तुतस्य प्रतिवेदनस्य आधारेण निश्चित दोषिण अवश्यमेव विधेरनुसारेण दण्डभाज भविष्यन्तीति च समस्पष्टयत्। मन्त्री परिषद उपवेशेन नागढुङ्गा सिस्नेखोला भूमिगत मार्गस्य उपभोग शुल्क निर्धारित अस्तीति सर्वकारस्य प्रवक्ता च मन्त्री गुरूङ असूचयत्। एवमेव मन्त्री परिषद उपवेशेन एतद् विक्रमवर्षीयां कृत्रिम बौद्धिकता नीतिं स्वीकर्तुं सेवा प्रदायकस्य माध्यमेन सार्वजनिक पूर्वाधाराणां सञ्चालन व्यवस्थापन पुनर्निर्माण सम्बद्धां एतद् विक्रमवर्षीयां निर्देशिकां स्वीकर्तुं च निर्णीतमस्तीति मन्त्री गुरूङ असूचयत्। एवमेव मन्त्री परिषद उपवेशेन विभिन्नानि उच्चस्तरीयाणि वैदेशिक भ्रमणानि स्वीकर्तुं स्थानीयस्तरेषु विद्यमानानां वृत्तिसेवा केन्द्राणां कृते विभिन्नानां व्यावसायिक प्रशिक्षण संस्थानां कृते च अधिकृतस्तराणि सपाद शत संख्यकानि अस्थायी पदस्थानानि स्रष्टुञ्च निर्णीतमस्तीति च मन्त्री गुरुङ असूचयत्। गृहमन्त्री रमेश लेखकः कथयति वर्तमान संविधाने द्वितय नागरिकतायाः व्यवस्थायाः अविद्यमानत्वं पूर्व नेपालीभ्य तेषां सन्तत्यै च आर्थिक सामाजिक सौविध्यं दातुं शक्यते। राष्ट्रियसभायाः अन्तर्गतायाः विधायन व्यवस्थापन समितेः ह्यस्तनोपवेशे गृहमन्त्री लेखकः नेपाली नागरिकतां त्यक्तवद्भ्यः तेषां सन्तत्यै च द्वितय नागरिकता प्रदानस्य विधिगत व्यवस्था नास्ति परं तथा विधेभ्य जनेभ्य सामाजिक सौविध्यानि प्रदातुं शक्यन्ते इति समस्पष्टयत्। उपवेशे नेपाल नागरिकता द्वितीय संशोधन विधेयकस्य प्रकरणगत विमर्शनस्य क्रमे गृहमन्त्री लेखकः विधेयके पित्रा विभिन्न कारणै सन्तत्ये नागरिकतायाः प्रदानाय असमर्थतायां स्थितौ मातुः नाम्ना नागरिकतायाः प्रदानस्य प्रक्रिया अग्रे वर्धते इति समस्पष्टयत्। नेपाली सेनया निर्व्यूढ निर्माण दायित्वस्य काष्ठमण्डप तराई मधेश द्रुतमार्गस्य निर्माणस्य कार्यं निर्धारिते समये एव सम्पत्स्यते इति ज्ञापितं वर्तते। राष्ट्रियसभायाः संघीयता सबलीकरण राष्ट्रिय सम्बद्धता समितेः ह्यस्तनोपवेशे रक्षामन्त्री मानवीर राई द्रुतमार्ग निर्माणस्य क्रमे खोकना क्षेत्र दृष्टानां समस्यानां समाधानं सम्भूतमस्तीत्यतः निर्धारिते समये एव कार्यं सम्पत्स्यते इति असूचयत्। सर्वकारेण हेटौडा वस्त्रोद्योगस्य संचालनस्य दायित्वं नेपाली सेनायै प्रदातुं उद्योग मन्त्रालयेन सह विमर्शनं विधीयमानमस्तीति चर्चयन् पिहितानाम् उद्योगानां संचालनस्य दायित्वमपि नेपाली सेनायै दातव्यम् इत्यत्र मन्त्री राई बलं प्रादात्। उपवेशे प्रधान सेनापतिः अशोक राज सिग्देलः 40% द्रुतमार्गस्य कार्यं सम्पन्नमस्तीति अज्ञापयत्। चिकित्सा शिक्षा आयोगस्य एकविंशतितमेन उपवेशेन अस्य शैक्षिक सत्रस्य कृते चिकित्सा शिक्षायाः विभिन्नानां स्तराणां स्थानसंख्या निर्धारिता अस्ति। प्रधानमन्त्रिणः केपी शर्मा ओलिनः अध्यक्षतायां प्रधानमन्त्री मन्त्री परिषदः कार्यालये ह्यः सम्पन्नेन उपवेशेन आयोगस्य स्थान निर्धारण समितेः परामर्शस्य अनुसारेण स्थानसंख्यां निर्धारयितुं निर्णीतमस्ति। एवमेव उपवेशेन अस्मिन् वर्षे प्राविधिक शिक्षा व्यावसायिक प्रशिक्षण परिषदः अन्तर्गते प्रमाणपत्रस्तरेऽपि संख्यां संवर्ध्य स्थानानि निर्धारितानि सन्ति। राष्ट्रपतेः रामचन्द्र पौडेलस्य समक्षं विभिन्नानां देशानां राजदूतैः पदीय प्रमाणपत्राणि प्रस्तुतानि सन्ति। राष्ट्रपति कार्यालये ह्य आयोजिते पृथक् पृथक् समारोहे राष्ट्रपतेः समक्षं नेपालस्य कृते जर्मनी देशस्य आवासीय राजदूतेन उडो ययुगेन भोज इत्यनेन नेपालस्य कृते फिनल्याण्ड देशस्य आवासीय राजदूतेन पेट्रे जुहानी पुहक्का इत्यनेन नेपालस्य कृते बुर्किना फासो देशस्य आवासीयतर राजदूतेन डा डिसाइर बोनिफेस सोम इत्यनेन नेपालस्य कृते कम्बोडिया देशस्य आवासीयतर राजदूतेन राथ मेनी इत्यनेन च पदीय प्रमाणपत्राणि प्रस्तुतानि सन्ति इति राष्ट्रपतेः कार्यालयस्य सूचनाधिकारिणा अर्चना खड्का अधिकारी इत्यनया प्रकाशितायां विज्ञप्तौ उल्लिखितमस्ति। बाजुरा जनपदस्य हिमाली ग्रामपालिकायां बुधवासरस्य रात्रौ वृष्टेः पश्चात् नद्यां दूरापन्नेन जलप्लवेन 11 गृहाणि प्रवाहितानि वर्तन्ते इति समाचारः।